ओम अथ श्री विष्णुरपामार्जन कवचम। पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे, प्रद्युम्नः पश्चिमे पातु वासुदेवस्ततोत्तरे। ऐशान्यां रक्षतात् विष्णुराग्नेयां च जनार्दनाः, नैऋत्यां पद्मनाभस्तु वायव्यां मधुसूदनाः। ऊर्ध्वं गोवर्धनोद्धर्ता यद्धरायां त्रिविक्रमाः, एताभ्यो दश दिग्भ्यश्च सर्वतः पातु केशवः। एवं कृत्वा तु दिग्बन्धं विष्णुं सर्वत्र संस्मरेत्, अव्यग्रचित्तः कुर्वीत न्यासकर्मं यथाविधि। अङ्गुष्ठाग्रे तु गोविन्दं, तर्जन्यां तु महीधरं, मध्यमायां ऋषिकेश, मनामिकां त्रिविक्रमम्। कनिष्ठिकायां निषेद् विष्णुं, करपृष्ठे तु वामनम्। एवमेवाङ्गुली न्यासः पश्चादङ्गेषु विन्यषेत्। शिखायां केशवं न्यस्ये, मूर्धनि नारायणं न्यषेत्। माधवं च ललाटे तु गोविन्दं तु भ्रुवोर्न्यषेत्। चक्षुर्मध्ये निषेद् विष्णु, कर्णयोर्मधुसूदनं, त्रिविक्रमं कण्ठमूले, वामनं तु कपालयोः। नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्बुधाः, उत्तरोष्टे ऋषिकेशं पद्मनाभं तथा धरे। दामोदरं दन्तपङ्क्तौ वाराहं चुबुके तथा, जिह्वायां वासुदेवं च तालवोश्चैव गदाधरम्। वैकुण्ठं करमध्ये तु अनन्तं नाशिकोपरि, दक्षिणे तु भुजे विप्रो विन्यषेत् पुरुषोत्तमम्। वामे भुजे महायोगं राघवं हृदि विन्यषेत्, कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यषेत्। वक्षस्थले माधवं च कक्षयोर्योगशायिनं, पीताम्बरं स्तनतटे हरिं नाभ्यां तु विन्यषेत्। दाक्षिणे तु करे देवं ततः सङ्कर्षणः न्यषेत्, वामे रिपुहरं विद्यात् कटिमध्ये जनार्दनम्। पृष्ठे क्षितिधरं विद्यात् अच्युतं स्कन्धयोरपि, वामकुक्षौ वारिजाक्षं दक्षिणे जलशायिनम्। स्वयंभुवं मेढ्रमध्ये पूर्वोश्चैव गदाधरं, जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यषेत्। गुल्फयोर्नारसिंहं च पादयोरमितद्विषम्, अङ्गुलीषु श्रीधर च पद्माक्षं सर्वसन्धिषु। नखेषु माधवं चैव न्यषेत् पादतलेच्युतम्, रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु। मनोबुद्ध्योरहङ्कारे चित्ते न्यषे जनार्दनम्, अच्युतानन्द गोविन्दान् वातपित्तकफेषु च। एवं न्यासविधिं कृत्वा यत्कार्यं द्विज तच्छृणु, पादमूले तु देवस्य शङ्खं चैव तु विन्यषेत्। वनमालां हृदि न्यस्ये सर्वदेवाभिपूजितां, गदां वक्षस्थले न्यस्ये चक्रं चैव तु पृष्ठतः। श्रीवत्समुरसीनस्य पञ्चाङ्गं कवचं न्यषेत्, आपादमस्तकं चैव विन्यषेत् पुरुषोत्तमम्। एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत्, तनुर्विष्णुमयितस्य यत्किञ्चिन्न स भासते। अपामार्जनको न्यासः सर्वव्याधिविनाशनाः, आत्मनश्च परस्यापि विधिरेष सनातनोः। वैष्णवेन तु कर्तव्यः सर्वसिद्धिप्रदायकः, विष्णुः तद्वोर्ध्वं रक्षेतु वैकुण्ठो विदिशो दिशः। पातु मां सर्वतो रामो दन्दी चक्री च केशवः, एतत् समस्तं विन्यस्य पश्चान्ने मन्त्रान् प्रयोजयेत्। अथ मूलमन्त्राः। ॐ नमो भगवते क्लेशापहर्त्रे नमः। पूजाकाले तु देवस्य, जपकाले तथैव च, होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः। आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत्, यद्यत् सुखतरं लोके तत्सर्वं प्राप्नुयान् नरः। एवं भक्त्या समभ्यर्च हरिं सर्वार्थदायकम्, अभयं सर्वभूतेभ्यो विष्णुलोकं स गच्छति। श्रीविष्णुलोकं स गच्छत्यो नम इति श्रीविष्णुधर्मोत्तरपुराणे श्रीविष्णुरपामार्जनकवचं सम्पूर्णम्।